अथ अष्टम स्कंध अथ द्वितीयोध्याय ग्राह के द्वारा गजेन्द्र का पकड़ा जाना। श्री शुक उवाच आसीद गिरीवरो राजन स्त्रीकूट इति विश्रुतः क्षीरोदयन वृत श्रीमान योजना युतमुच्छितः तावता विस्तृतः पर्यक् त्रिभिः श्रृंगैः पयोनिधिम् दिशः खम् रोचयन्नास्ते रौप्यायस हिरण्मयैः अन्यैश्च ककुभः शर्वा रत्नधातु विचित्रितैः नाना द्रुमलता गुल्मैर्निर्घोषैर्निर्झराम्भसम् सचाव निज्यमानाङ्घ्रि समन्तात्पय उर्मिभिः करोति श्यामलां भूमिम् हरिन्मरकताश्मिभिः सिद्धचारण गंधर्व विद्याधर्म हो रगै किन्नरैरप्सरोभिश्च क्रीडद्भिर्जुष्टकन्धरः यत्र संगीत सन्नादैर्नदद्गुहममर्षया अभिगर्जन्ति हरयः श्लाघिनः परशङ्कया नानारण्य पशुभ्रात संकुलद्रोण्यलङ्कृतः चित्रद्रुमशिरोद्यान कलकण्ठ विहङ्गमः सरित सरोभिरच्छोदये पुलिनैर्मणिबालुकैः देवस्त्री मज्जना मोद सौरभाम्बु अनिलैर्जुतः जस्या द्रोण्याम् भगवतो वरुणस्य महात्मनः उद्यानम् ऋतुमन्नाम आकीर्णम् सुरजोषितान् सर्वतोऽलङ्कृतम् दिव्यैर्नित्यम् पुष्पफलद्रुमैः मन्दारैः पारिजातैश्च पाटलाशोकचम्पकैः सूतैः प्रियालैः पनसैराम्रैराम्रातकैरपि कक्रमुकैर्नालिकेरैश्च खर्जूरैर्बीजपूरकैः मधुकैः शालतालैश्च तमालैरसनार्जुनैः अरिष्टो दुम्बरप्लक्षैर्बटैः किम् सुखचन्दनैः पिचुमन्दैः कोविदारैः सरलैः सुरदारुभिः द्राक्षेक्षुरम्भा जम्बुभिर्बदर्यक्षाभयामलैः बिल्वैः कपित्थैर्जम्बीरैर्वृत्तो भल्लातकादिभिः तस्मिन् सरः सुविपुलम् लसत् काञ्चन पङ्कजम् कुमुदोत्पलकहलार शतपत्र श्रीयोर्जितम् मत्षट्पद निर्घुष्टम् शकुन्तैश्च कलस्वनैः हंसकारण्डवाकीर्णम् चक्रावै सारसैरपि जलकुक्कुटकोयष्टि दात्युः कुलकूजितम् मत्स्यकच्छप संचार चलत पद्मरजः पयः कदम्ब बेतस नल नीप बंजुलकैर्वृतम् कुन्दैः कुर्वकाशोकैः शिरीशैः कुटजेङ्गुदैः कुब्जकैः स्वर्णज्योतिभिर्नागपुन्नाग जातिभिः मल्लिका शतपत्रैश्च माधवी जालकादिभिः शोभितम् तीरजैश्चान्यैर्नृत्यर्तुभिरलम् द्रुमैः तत्रैकदा तद्गिरिकाननाशयः करेणुभिर्वारणजूथपश्चरन् सकण्टकान् कीचकवेणुवेत्रवद् विशालगुल्मम् प्रवृजन् वनस्पतिम् जद्गन्धमात्राद् हरयो गजेन्द्रा व्याघ्रादयो व्यालमृगा सखड्गः महोरगाश्चापि भयाद्रवन्ति सगौरकृष्णः शर्भाश्च मर्यः ब्रिका वराः महिषर्क्षशल्या गोपुच्छशाला वृकमर्कटाश्च अन्यत्र क्षुद्रा हरिणा शशादयः चरन्त भीता जदनुग्रहेण स घर्म तप्तः करिभिः करेणुभिर्वृतो मदच्युत्कलभैरनुद्रुतः गिरिम् गरिम्णा परितः प्रकम्पयन् निषेव्यमाणोऽलिकुलैर्मदाशनैः सरो नीलम् पङ्कजरेणुरोषितम् जिघ्रन् विदूरान् मदभिः वलक्षणः वृतः स्वजूथेन तिरसार्दितेन तत् सरोवराभ्याशमथागमद्रुतम्। विगाह्य तस्मिन् निर्मलम् हेमारविन्दोत्पलरेणु पपौ निकामम् निजपुष्करोद्धृतम् आत्मानमद्भिः स्नपयन् गतक्लमः स्वपुष्करेणोद्धृतशीकराम्बुभिर्निपायन् संस्नपयन् यथा गृही गिणी करेणु कलभांश्च दुर्मदो नाचष्ट कृष्णम कृपणो जमाया तम तत्र कश्चिन्नृप दैव चोदितो ग्राहो बलीयांश्चरणे रुषा ग्रहीत यद्विच्छैवं व्यसनं गतो गजो यथा बलं सोति बलो विचक्रमे तथा तुरं जूथपतिं करेणवो विकृष्यमाणं तरसा बलीयसा विचुक्रशूर्दीन धियो परे गजः पार्ष्णी ग्रहास्तारयितुं न चाशकं निजुद्यतोरेवमिभेन्द्रनक्रयोर् विकर्षतोरन्तरतो बहिर्मिथः समःसहस्रं व्यगमन्महीपते सप्राणयोश्चित्रममंसतामरः ततो गजेन्द्रस्य मनोबलौजसां कालेन दीर्घेण महान् भूद्व्ययः विकृष्यमाणस्य जले वसीदतो विपर्ययो भूत् सकलं जलौकसः इत्थं गजेन्द्रः सजदापसङ्कटम् प्राणस्य देही विवशो जदिच्छया अपारयन्नात्मविमोक्षणे चिरम् दध्यो विमां बुद्धिमथाभ्यपद्यत न मामिमे ज्ञातया तुरं गजः कुतः करिण्यः प्रभवन्ति मोचितम् ग्राहेण पाशेन विधातुरावृत ह्यहं च तं यामि परं परायणम् यः कश्चनेषो बलिनन्तकोरगात् प्रचण्डवेगादभिधावतो भृशम् भीतं प्रपन्नं परिपाति जद्भयात् मृत्युः प्रधावत्यरणं तमीमहि। इति श्रीमद्भागवते महापुराणे परमहंस्यां संहिता अष्टमस्कन्धे मन्वन्तरानुवर्णने गजेन्द्रोपाख्याने द्वितीयोऽध्यायः।